अगजाननम् अगजाननपद्मार्कं गजाननमहर्निशम् अनेकदन्तं भक्तानाम् एकदन्तमुपास्महे श्रीमहागणपतये नमः कुरवे सर्वलोकानां विषये भवरोगिणां निदये सर्वविद्यानां श्रीदक्षिणामूर्तये नमः अस्मद्गुरुचरणारविन्दाभ्यां नमः ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् आधारं सर्वविद्यानां हयग्रीवमुपास्महे श्रीहयग्रीवमूर्तये नमः सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा श्रीमहासरस्वत्यै नमः सर्वेभ्यो नमः गुरुभ्यो नमः हरिः ओम्
धन्यवादः भगिनि धन्यवादः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् वर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र कर्मणि च भावे प्रयोगः च वयं लकारे रूपं कथं भवति इति दृष्टवन्तः इदानीं तत्र बोट् लकारे रूपं कथं भवति इति अस्माकं मुख्यविषयः अतः तत्र वयं जानीमः तत्र सूत्रद्वयं वर्तते कर्तृसूत्रम् अपि कर्मणि सूत्रं नरीश् महोदया तत्र कर्तृसूत्रं किम्
कर्तरीसूत्रम् अत्र तत्र एकं द्वे एकं द्वे एकम्
एकं द्वे एकं हा नाम तत्र क्रियापदं कर्तृपदम् अनुसरति अपि तत्र कर्मपदस्य द्वितीया विभक्ति इति हा इदानीं तत्र सुजात भगिनी नमस्कारः
नमस्ते महोदय
भवती तत्र कर्मणि सूत्रं किम् इति वदति वा
आम् महोदय कर्मणि सूत्रे कर्तृपदं तृतीया विभक्ति भवति कर्मपदं प्रथमा विभक्ति भवति क्रियापदम् अनुसृत्य कर्मपदं भवति
अस्तु क्रियापदं कर्मपदं समान तत्र पुरुषः वचनं च समीचीनं अतः तत्र कर्तृसूत्रमस्ति एकं द्वि एकं कर्मणि सूत्रमस्ति त्रि एकम्
एकम् एकं
हा समीचीनम् अतः इदानीं तत्र उषा भगिनी तत्र क्रियापदं कर्मणि प्रयोगे क्रियापदं तस्य रूपं किं भवति तत्र गच्छति गच्छतः गच्छन्ति तत्र लट्लकारे कर्मणि रूपं किं भवति
धन्यवादः
धन्यवादः भगिनि
गम्यते गम्यते गम्यन्ते
गम्यते गम्येते सर्वदा आत्मनिपदी रूपम् आत्मनिपदी धातु इव आत्मनिपदी कर्तरि इव कर्मणि रूपं भवति खलु नाम कर्मणि अस्ति किन्तु अन्यधातोः अन्य आत्मनिपदिधातोः कर्तृ लट् इव लट् रूपं भवति कर्मणि प्रयोगः अतः गम् धातोः कर्मणि भवति तत्र गम्यते गम्येते गम्यन्ते इति भवति अति समीचीनम् इदानीं तत्र वेदा भगिनी तत्र घम् धातोः इदानीम् उषा भगिनी उक्तवती तत्र गम्यते गम्येते गम्यन्ते इति भवति इदानीं तत्र लोट् रूपं किं भवति
लोट् रूपः भवति गम्यतां गम्येतां गम्यन्तां गम्यस्व गम्येतां गम्यध्वं गम्यै गम्यामहै गम्यामहै
हा उत्तमं भगिनि हा तथैव भवति हा अस्तु अतः तत्र रूपं कथं भवति तत्र आत्मनिपदिधातु इव लट् लकारः वा लोट् लकारः वा कर्तृलट् कर्तृलोट् भवति किन्तु भिन्नः धातुः तत्र गम् इति धातुः किन्तु तत्र यदि कर्मणि कुर्मः तत्र गम्य इति तत्र यकारस्य आदेश तत्र यकारः अपि भवति तत्र तदनन्तरं तत्र लकारं कुर्मः समीचीनम् अस्तु इदानीं तत्र किञ्चित् अभ्यासं कुर्मः तत्र नरेश महोदय तत्र खादति इति तत्र कर्मणि लट् अपि कर्मणि लोट् प्रथमपुरुषे वदतु.
कर्मणि लट् खाद्यते खाद्येते खाद्यन्ते
लोट्
लोट् खाद्यतां खाद्येतां खाद्यन्ताम्
खाद्यन्ताम् इति भवति. समीचीनम्. इदानीं सुजाता भगिनी तत्र पश्यतु इति वयं जानीमः, पश्यतु इति तत्र किं भवति कर्मणि प्रयोगे, कर्मणि लट् किं भवति?
कर्मणि लट् पश्यतु दृश्यताम्
पश्यति इति स्वीकुर्मः.
पश्यति पश्यति पश्यतु
लोट् मास्तु. इदानीं पश्यति कर्मणि लट् किं भवति?
दृश्यताम्
दृश्यते लट् दृश्यते 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 प्रथमपुरुषे रूपत्रयं वदतु. दृश्यते
दृश्यते दृश्येते दृश्यन्ते.
हा समीचीनम्. इदानीं कर्मणि लोट् वदतु.
पश्यतु दृश्यतां
दृश्यतां
दृश्येतां दृश्यन्तां
दृश्यन्ताम् इति. अस्तु समीचीनम्. इदानीं तत्र उषा भगिनी तत्र अन्यत् किमपि धातुः स्वीकुर्मः तत्र अस् धातुः अस्ति
अस्ति
कर्त्री कर्त्री लट् वदतु. अस् धातुः अस्ति
अस्ति स्तः सन्ति
अस्ति स्तः सन्ति. इदानीं कर्मणि लट्
कर्मणि लट् अस्थां
न न अस् धातोः कर्मणि कुर्मः चेत् भू धातुः इव भवति.
धातु भूयते भूयेते भूयन्ते.
हा इदानीं लोट्
भूय भूयतां भूयेतां भूयन्तां
भूयन्ताम्. उत्तमम्. अस्तु इदानीम् अग्रे तर्हि इदानीं वाक्यरचनं कुर्मः तर्हि. इदानीं वेदा भगिनी तत्र इदानीं बालकः गच्छतु इदानीं कर्मणि प्रयोगे किं भवति?
बालकः गच्छतु लोट्लकारे कर्तरि प्रयोगे कर्मणि प्रयोगे बालकेन गच्छताम्
गच्छतु इति तत्र कर्मणि रूपं
गम्यतां गम्यतां गम्यतां.
पुनः वाक्यं
बालकेन गम्यताम्.
बालकेन गम्यताम् बहुवचने तत्र बालकाः किं
बालकाः गम्यन्ताम् इति वा?
न न न प्रथमतया कर्तरि लोट् वदतु.
कर्तरि लोट् बालकाः बालकाः गच्छन्तु
बालकाः गच्छन्तु. इदानीं कर्मणि
लोट्लकारे बालकैः गच्छन्ताम्
पुनः गच्छन्ताम् इति कथम् आगतः?
गम् भवति तत्र बालकैः गम्यन्त गमयन्तां वा गम् योग अन्तां गमयन्त गम
एकं करोतु भगिनि तर्हि तत्र गच्छति इति धातुः अस्ति गम् धातुः. अस्तु तत्र कर्मणि लट्लकारे रूपं किं भवति?
कर्मणि लट्लकारे गम्यन्ते
न न एकवचनं द्विवचनं सर्वं वदतु.
गम्यते गम्येते गम्यन्ते.
अस्तु इदानीं कर्मणि लोट् वदतु.
गम्यतां गम्येतां गम्यन्ताम्
इति अस्ति. अस्तु समीचीनम्. इदानीं बालकाः गच्छन्तु इति
बालकाः गच्छन्तु बालकैः गम्यन्ताम्
बालकैः गम्यन्ताम्. अस्तु किमर्थं गम्यन्ताम् इति अस्ति तत्र
किम् ओ ओके ओके तत्र कर्मपदं तत्र कर्मपदं किमस्ति बाल बालकैः गृहं गम्यन्ताम् इति न गृहं गम्यतामेव
चिन्तमस्तु बालकैः बालकाः गृहं गच्छन्तु इति स्वीकरोति इति वा इति एव वाक्यं स्वीकरोतु.
बालकाः गम्यन् गच्छन्तु तत्र बालकेन गच्छतामेव
बालकाः गृहं गच्छन्तु इति स्वीकरोतु.
बालकाः गृहं गच्छन्तु, बालकैः गृहं गम्यताम्.
अतः बालकैः गृहं गम्यताम्.
गम्यताम्
इति इदानीं तत्र गृहम् अस्ति नास्ति कोऽपि प्रश्नः नास्ति, यतोहि तत्र यदि तत्र कर्मपदं नास्ति चेत् समीचीनं. हा अस्तु, अग्रे नरेश् महोदय. तत्र बालकः खादतु.
बालकः खादतु
कर्मणि लोट्.
बालकेन खाद्यताम्.
हा बालकेन खाद्यताम्. इदानीं बालकाः खादन्तु.
बालकाः खादन्तु, बालकैः खाद्यताम्.
बालकैः खाद्यताम् समीचीनम्. इदानीं बालकाः भोजनं खादन्तु.
बालकाः भोजनं खादन्तु, बालकैः भोजनं खाद्यताम्.
भोजनं खाद्यताम् समीचीनम्. अस्तु, इदानीं सुजाता भगिनी तत्र बालकाः वृक्षः बालकः पश्यतु. किं भवति कर्मणि?
बालकः
पश्यतु.
बालकः वृक्षं
वृक्षमिदानीं मास्तु, केवलं बालकः पश्यतु इति स्वीकुर्मः. बालकः पश्यतु.
बालकेन दृश्यतु. नो, दृश्यताम्.
बालकेन दृश्यताम्. बालकेन दृश्यताम्. इदानीं बालकः वृक्षं पश्यतु.
बालकेन वृक्षं दृश्यते. दृश्येताम्.
दृश्येतां दृश्येत् किं किं भवति तत्र रूपं क्रियापदं?
दृश्यतां दृश्येतां दृश्यन्ते.
अत्र किं भवति?
बालकः वृक्षं वृक्षः पश्यतां दृश्यतां
दृश्यतां. पुनः पूर्णवाक्यं.
बालकः वृक्षः दृश्यताम्.
न
बालकेन वृक्षः दृश्यताम्.
हा समीचीनम्. इदानीं तत्र कर्त्री लोट् अपि वदतु, कर्मणि लोट् अपि वदतु.
कर्त्री लोट् बालकः वृक्षं पश्यतु.
इदानीं कर्मणि लोट्.
बालकेन वृक्षः दृश्यताम्.
हा समीचीनम्. इदानीं बालकाः इति स्वीकरोतु कर्तृपदम्. इदानीं कर्त्री किं भवति?
बालकैः
लोट् वदतु प्रथमतया. कर्त्री लोट् बालकाः.
बालकाः वृक्षं पश्यन्तु.
हा बालकाः वृक्षं पश्यन्तु. इदानीं कर्मणि डोट् वदतु.
बालकैः वृक्षः दृश्यन्ताम्.
किमर्थं दृश्यन्ताम्?
वृक्षः पश्यतां. दृश्यताम्. वृक्षः प्रथमा विभक्ति अस्ति. एकवचनम् अस्ति. दृश्यतां
भवति.
क्षम्यतां महोदय.
चिन्ता मास्तु भगिनि. बालकैः
वृक्षः दृश्यताम्.
बालकैः वृक्षः दृश्यताम्. अस्तु समीचीनम्. इदानीं तत्र समीचीनं भगिनि. इदानीं उषा भगिनि तत्र बालिका पाठशालां गच्छतु.
बालिका पाठशालां गच्छतु. बालिका पाठशालां गच्छतु इति कर्तरि लोट् अस्ति. बालिकैः
बालिका इति अस्ति. बालिका
बालिका ओ बालिकाः रमया बालिकया पाठशालां गम्यताम्
अस्तु बालिकया अस्तु तदनन्तरं
किं वदनीयं महोदय
पुनः वाक्यं वदतु भगिनि बालिकया
बालिकया पाठशालां गम्यताम्
अस्तु तत्र किं किम् अस्ति इति वाक्ये वदतु गम्यताम् इति
तृतीयविभक्ति अस्ति
पाठशालां
पाठशाला गम्यताम्
पुनः वाक्यं
बालिकया पाठशाला गम्यताम्
हा इति इदानीम् उत्तमम् अस्ति हा बालिकया पाठशाला गम्यताम् अस्तु इदानीं बालिकाः इति स्वीकरोतु कर्त्री लोट् किं भवति
बालिकाः पाठशालां गच्छन्तु बालिकाभिः पाठशाला गम्यताम्
गम्यताम् हा उत्तमं भगिनि हा मधुसूदन् महोदय नमस्कारः कर्मणि प्रयोगस्य अभ्यासं कुर्वन्तः स्मः अस्तु इदानीं तत्र वेदा भगिनी इदानीं तत्र त्वम् इति अस्ति चेत् तत्र बालकः गच्छतु त्वम् अस्ति चेत् रूपं किं भवति लोट्लकारे
त्वं गच्छतु त्वं गच्छ
अस्तु अस्तु तर्हि त्वं
तत्र
त्वं ग्रामं गच्छ इति स्वीकरोतु कर्तृलोट् इति कर्तृलोट् इदानीं कर्मणि लोट् किं भवति
त्वया ग्रामः वा ग्राममेव ग्राममेव नपुंसकलिङ्गे त्वया ग्रामं गच्छस्व
ग्रामः
आम् आम् त्वया ग्रामः गच्छस्व
गच्छस्व इति तत्र किमर्थं तत्र कर्मणि रूपं
ओके ओके ग्रामम् अनुसरति क्रियापदं सो त्वया ग्रामः गच्छतां गम्यताम्
हा उत्तमं भगिनि हा त्वया ग्रामः गम्यताम् अस्तु इदानीं तत्र त्वम् इति स्थाने तत्र बहुवचनं स्थापयतु त्वं युवां
यूयं ग्रामं गच्छाम लोट्लकारे कर्त्रि
गच्छाम किं भवति तत्र
न कर्तरिप्रयोगे महोदय लोट्लकारे
प्रथमतया कर्तृप्रयोगे
कर्तरिप्रयोगे यूयं ग्रामं गच्छाम इति न वा
वयमिति नास्ति भगिनि तत्र
सत्यम् ओ उत्तमपुरुषे वदामि सत्यं यूयं ग्रामं गच्छत इति लोट्लकारे कर्तरिप्रयोगे
यूयं गच्छत तत्र तकारः तत्र महाप्राणः वा अल्पप्राणः
न न अल्पप्राणः
अल्पप्राण समीचीनं यूयं ग्रामं गच्छत
कर्मणि लोट्लकारे यूयं तस्य तृतीयविभक्ति युष्माभिः ग्रामः युष्माभिः ग्रामः गम्यतामेव
अस्तु समीचीनं तथैव अस्ति हा उत्तमम् अस्तु धन्यवादः अस्तु अग्रे नरेश् महोदय तत्र इदानीं तत्र त्वं खादतु त्वं भोजनं खादतु इति तत्र भवति तत् कर्तृलोट् अस्ति कर्मणि लोट् किं भवति
त्वया भोजनं खाद्यताम्
हा त्वया भोजनं खाद्यताम् हा अस्तु इदानीं तत्र त्वम् इति स्थाने बहुवचनं स्थापयतु
यूयं भोजनं खादत
हा इदानीं कर्मणि लोट्
कर्मणि युष्माभिः भोजनं खाद्यताम्
खाद्यताम् इति एव भवति समीचीनम् अस्तु ललितकुमारी नमस्कारः तत्र वयं नमस्कारः भगिनि तत्र कर्मणि प्रयोगस्य लोट् लकारस्य अभ्यासं कुर्वन्तः स्मः भगिनि इदानीं पाठः साक्षात् पाठः न आरब्धः केवलं तत्र
अहं किञ्चित् गृहकार्ये व्यस्ता अस्मि महोदय किञ्चित् समयानन्तरम् उत्तरं ददामि
अस्तु भगिनि चिन्ता मास्तु हा चिन्ता मास्तु यदा यदा भवती वक्तुं शक्नोति सूचयतु
नमस्ते महोदय
अहमपि
शृणोमि एव क्षमताम्
अस्तु चिन्ता मास्तु महोदय शृणोतु तर्हि चिन्ता मास्तु नमस्कारः महोदय अस्तु तर्हि तत्र सुजाता भगिनि इदानीं तत्र भवती तत्र हा त्वं त्वम् इति अस्ति तत्र बालकः वृक्षं पश्य पश्यतु इदानीं तत्र त्वम् अस्ति चेत् किं भवति भगिनि
बाल
न त्वं त्वम् अस्ति त्वं वृक्षः
त्वं वृक्षं पश्य
पश्य हा अस्तु इदानीं तत्र कर्तृ लोट् अस्ति त्वं वृक्षं पश्य किं भवति
त्वया वृक्षः वृक्षः दृश्यताम् न
दृश्यतां वा दृश्यस्व वा
दृश्यस्व भवति
न कर्मपदम् अनुसरति खलु कर्मपदम् अस्मिन् वाक्ये किम् अस्ति
वृक्षः प्रथमाविभक्ति अस्ति एकवचनं
प्रथमपुरुषः अस्ति
प्रथमपुरुषे एकवचनम् अस्ति एकवचनम् अस्ति पश्य त्वया वृक्षः पश्य
न भवती उक्तवती पूर्वमपि पश्यतु अस्ति चेत् दृश्यताम् इति भवति खलु
आम् आं महोदय
अतः तत्र इदानीं तत्र पूर्वस्मिन् तत्र पूर्वं भवत्याः वाक्यमासीत् तत्र बालकः वृक्षं पश्यतु तत्र कर्मणि लोट्लकाररूपं किम् आसीत्
बालकेन वृक्षः दृश्यताम्
इदानीं तत्र त्वं वृक्षं पश्यतु अस्ति चेत् तत्र रूपं किं त्वया
त्वया वृक्षः दृश्ये
अस्तु भगिनि पुनः तत्र बालकः वृक्षं पश्यतु तत्र किमर्थं पश्यतु इति रूपमस्ति तत्र
लोट्लकार
क्रियापदस्य वचनमपि पुरुषः कः इति वदतु तत्र बालकः वृक्षं पश्यतु पश्यतु इति अस्ति क्रियापदमस्ति तत्र वचनं किं
पश्यतु एकवचनम् अस्ति प्रथमपुरुषे एकवचनं
प्रथम किमर्थम् अस्ति
वृक्षः प्रथम
वृक्षं बालकः वृक्षं पश्यतु इति अस्ति
वृक्षं पश्यतु द्विवचनम् अस्ति
द्विवचनं न द्वितीयाविभक्ति तत्र कर्तृप्रयोगः अस्ति खलु भगिनि सुजाता भगिनि
ब्रह्मजाता महोदय
पश्यतु कर्तृप्रयोगः वा कर्मणि प्रयोगः वा
बालककर्तृप्रयोगः
खलु बालकः वृक्षं पश्यतु कर्तृलोकः खलु अस्तु कर्तृप्रयोगे क्रियापदं कं पदम् अनुसरति किं पदम् अनुसरति अस्तु अतः तत्र पश्यतु अस्ति चेत् एकवचने अस्ति प्रथमपुरुषः रूपम् अस्ति किमर्थं यतोहि कर्तृपदं
कर्तृपदम् अनुसरति
क्रियापदं अस्मिन् वाक्ये
कर्तृपदं बालकः
बालकः इति अस्ति. अस्तु, इदानीं कर्मणि प्रयोगे रूपं वाक्यस्य रूपं किं भवति?
बालकेन बालकेन वृक्षः दृश्यताम्.
एतत् एषः प्रयोगः कर्तृप्रयोगः वा कर्मणि प्रयोगः वा?
कर्मणि प्रयोगः.
कर्मणि प्रयोगः. अस्तु, अत्र दृश्यताम् इति किमर्थमस्ति? तत्र वचनं किं मध्यमं
दृश्यतां? वृक्षः प्रथमाविभक्ति अस्ति.
कर्मपदं
कर्मपदमस्ति. कर्मपदम् अनुसृत्य
क्रियापदं
क्रियापदं भवति.
अस्तु, अतः तत्र वृक्षः एकवचने अस्ति. क्रियापदमपि
एकवचने दृश्यतां भवति.
दृश्यतां किमर्थं तत्र प्रथमपुरुषः अस्ति, मध्यमपुरुषरूपं नास्ति, उत्तमपुरुषरूपं नास्ति?
बालकः प्रथमपुरुषः.
कर्मणि प्रयोगे
तृतीया विभक्ति भवति.
सत्यं, किन्तु किमर्थं क्रियापदम् उत्तमपुरुषरूपं नास्ति इति प्रश्नः?
त्वं मध्यमपुरुष अस्ति.
किमर्थं त्वम् एतत् सर्वं बालकः वृक्षं पश्यतु इति तस्य वाक्यम् उक्तवती भवती. बालकेन वृक्षः दृश्यताम् इति अस्ति. तत्र किमर्थं दृश्यताम् इति अस्ति? किमर्थं दृश्येताम् इति नास्ति? किमर्थं दृश्यन्ताम् इति नास्ति? किमर्थं दृश्यै इति नास्ति?
प्रथमपुरुष एकवचनम् अस्ति.
किमर्थं
वृक्षः कर्मपदं वृक्षः
इति एकवचने अस्ति
इत्यनेन
उत्तमपुरुष नास्ति, मध्यमपुरुष नास्ति, प्रथमपुरुष एव अस्ति खलु?
आम् आं महोदय.
अस्तु, इदानीं समीचीनमस्ति वा? अतः तत्र किं पश्यतु अस्ति चेत् बालकेन वृक्षः दृश्यताम् इति अस्ति.
दृश्यताम्.
अतः तत्र दृश्यतां किमर्थमस्ति? वृक्षः इति कर्मपदम् अस्ति खलु?
आं महोदय.
अस्तु, इदानीं वाक्यं त्वं वृक्षं पश्य इति कर्तृ डोट् त्वं वृक्षं पश्य इति
त्वया वृक्षः दृश्यस्व.
इदानीं भवती एव
न दृश्यतां महोदय.
दृश्यतामेव, यतोहि
दृश्यताम् एव.
कर्मणि प्रयोगे कर्मपदस्य एव महत्वं खलु?
आम् आं महोदय, क्षम्यतां महोदय.
उत्तम. अस्तु, त्वया
अतः दृश्यतां भवती एकवचने.
आहत्य त्वया
वृक्षः दृश्यताम्.
इदानीं त्वम् इति स्थाने तत्र बहुवचनं स्थापयतु, किं भवति?
यूयं वृक्षं यूयं दृश्यता.
न पश्यति स्थाने
त्वया वृक्षः
यूयम् इति अस्ति.
यूयं युष्माभिः वृक्षः दृश्यत्वं.
किमर्थं दृश्यत्वं?
दृश्यतां वृक्षः प्रथमाविभक्ति, दृश्यतामेव भवति.
तत्र कर्मपदं समानमस्ति चेत् किमर्थं परिवर्तनं खलु?
आं महोदय,
अवगतं खलु भगिनि इदानीं?
अतः युष्माभिः वृक्षः दृश्यताम्.
अस्तु, समीचीनं. अस्तु भगिनि, इदानीं तत्र उषा, इदानीं तत्र पुनः तत्र त्वम् इति तत्र त्वं भोजनम् इति भवति चेत् खाद् इति धातुः तत्र किं भवति
त्वं भोजनं खादतु खाद त्वं भोजनं खाद
बालकः भोजनं खादतु त्वं भोजनं खाद अस्तु हा
त्वया भोजनं नपुंसकलिङ्गे एव अस्ति न महोदय
खाद्य तत्र किं भवति खाद एव खलु
खाद महोदय खाद खादतं खादत
अस्तु
खाद अथवा खादतात् इति द्वे रूपम् अस्ति महोदय
समीचीनम् अस्तु
त्वं भोजनं नपुंसकलिङ्ग अस्ति न महोदय त्वया भोजनं खाद्यताम्
खाद्यताम् अस्तु इदानीं तत्र कर्तृलोट् मध्ये यूयम् इति स्थापयित्वा यूयं
यूयं भोजनं खादत युष्माभिः भोजनं खाद्यताम्
खाद्यताम् इति अस्ति समीचीनम् अस्तु अग्रे इदानीं तत्र नरेश् महोदय अस्तु वेदा भगिनी करिष्यामि वेदा भगिनी अग्रे इदानीं तत्र भवान् न भवान् बालकः मा पश्यतु इति स्वीकरोतु
बालकः मा पश्यतु वा
मां पश्यतु
बालकः मां पश्यतु इति कर्तरी लोककारे बालकः मां पश्यतु बालकेन बालकेन किं वदामि अहं मां बालकः अहं बालकेन अहं दृश्यताम्
इदानीं तत्र वाक्ये कर्मपदं किम् अस्ति कर्तृपदं किम् अस्ति
बालकेन कर्तृपदम् अस्ति तत्र कर्मणि प्रयोगे बालकेन तृतीयाविभक्तिः अस्ति
समीचीनम्
अपि च प्रथमा विभक्ति मया तस्य प्रथमा विभक्ति न माम् इत्यस्य प्रथमा विभक्ति अस्ति अहम्
अहम् अस्तु समीचीनम् अहम्
ओ अहं दृश्यतां न अहं दृश्यै
समीचीनं
बालकेन अहं दृश्यै
हा इति भवति समीचीनम् अस्तु इदानीं तत्र अहम् इति स्थाने तत्र माम् इति आसीत् तत्र बहुवचनं स्थापयतु बालकः
माम् इत्यस्य बहुवचनमस्ति अस्मान् वयं बालकेन वयं बालकेन वयं दृश्यामहे
दृश्यामहे अस्तु इदानीं तत्र बालकेन वयं दृश्यामहे अस्तु तत् कर्तृरूपमपि एकवारं वदतु
कर्तृरूपमस्ति बालकः बालकः अस्मा न बालकः अस्मान् बालकः अस्मान् पश्यन्तु
पश्यतु पश्यतु
सोरि बालकः अस्मान् पश्यतु
हा समीचीनं बालकः अस्मान् पश्यतु बालकेन वयं दृश्यामहे
वयं दृश्यामहे
समीचीनम् अस्तु हा अस्तु इदानीं तत्र नरेश् महोदय इदानीं तत्र बालकः इति तत्र त्वां पश्यतु
बालकः त्वां पश्यतु बालकेन बालकेन त्वं पश्य दृश्यताम्
कर्मपदं किम् अस्ति
त्वं दृश्यस्व
हा बालकेन त्वं दृश्यस्व इदानीं तत्र त्वं त्वां स्थाने तत्र बालकः त्वां पश्यतु इति तत्र कर्मपदस्य बहुवचनरूपं स्थापयतु त्वाम् इति स्थाने
युष्मान् बालकः युष्मान् पश्यतु
बालकः युष्मान् पश्यतु इदानीं कर्मणि लोट्
बालकेन बालकेन यूयं दृश्यध्वम्
हा दृश्यध्वम् इति भवति समीचीनम् अस्तु इदानीं तत्र सुजाता भगिनी इदानीं तत्र बालिका बालिका तत्र त्वां पश्यतु इति कर्तृरूपं बालिका त्वां पश्यतु तत्र कर्मणि रूपं किं भवति कर्मणि लोट्
बालिकया त्वं बालिकया त्वं दृश्यताम्
किमर्थं दृश्यतां कर्मपदं किम् अस्ति इदानीं
बालिकया त्वं प्रथम
दृश्यस्व
दृश्यस्व
किमर्थं दृश्यस्व इदानीं
प्रथम मध्यमपुरुषः अस्ति
किं किं मध्यमपुरुषः अस्ति
त्वं
कर्मपदं
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 मध्यमपुरुष अस्ति अतः
बालिकया
बालिकया त्वं दृश्यस्व
इदानीं तत्र बालिका तत्र त्वाम् इति स्थाने बहुवचनं स्थापयतु कर्मपदस्य बहुवचनरूपं तत्र
त्वां बहुवचनं यूयम्
न न बहुवचनं किन्तु द्वितीयविभक्ति भवेत् खलु
द्वितीयविभक्ति
त्वां
युवां यूयम्
किन्तु तत् प्रथमविभक्ति अस्ति
आमां युष्माभिः युष्माभिः
युष्माभिः तृतीयविभक्ति अस्ति नरेश् महोदय उक्तवान् इदानीमेव
युष्मान् युष्मान् युष्मान्
हा बालिका युष्मान्
युष्मान्
बालिका युष्मान् पश्यतु
पश्यतु
इदानीं कर्त्री लोट् अस्ति तत् इदानीं कर्मणि लोट् किं भवति
बालिकाभिः
न न बालिका एव अस्ति खलु
बालिका बालिका त्वं
न न बालिका अस्ति चेत् कर्तृवाक्यं पुनः वदतु बालिका
बालिका युष्मान् पश्यतु
अस्तु तत्र
कर्मणि बालिकया
अस्तु अस्तु वदतु भगिनि
बालिकया युष्मान् बालिकया यूयं न महोदय
तत्र पुस्तकं दृष्ट्वा वदतु तत्र किम् अपेक्षितं किं किं करणीयम् इति वदतु तत्र लोट् उत्तमपुरुषः वा मध्यमपुरुषः वा
मध्यमपुरुषः बालिकया त्वं दृश्यद्वा
यूयं खलु यूयं
यूयं दृश्यद्वं
पूर्णवाक्यं वदतु तर्हि
बालिकया यूयं दृश्यद्वम्
इति अस्तु समीचीनम्
क्षम्यतां महोदय
समीचीनम्
ऐ नीड् टु प्राक्टीस्
तदेव वर्गे तदेव कुर्मः खलु अस्तु चिन्ता मास्तु
धन्यवादः
ललितकुमारी भगिनी नमस्कारः
अस्तु
अस्तु तर्हि तत्र बालकः मां पाठयतु इति कर्त्री लोट् बालकः मां पाठयतु इदानीं तत्र कर्मणि लोट् अपेक्षितमस्ति भगिनि अतः एकवारं तत्र कर्तृपदं कर्मपदं किम् अस्ति कर्तृप्रयोगे इति एकवारम् उक्त्वा तदनन्तरं कर्मणि रूपं वदतु भगिनि
कर्तृपदं बालकः कर्मपदं मां पाठयतु क्रियापदं
समीचीनं इदानीं कर्मणि
इदानीं कर्मणि प्रयोगे बालकः बालकेन अहं अहं पाठयतु अहं पाठ्यै
पाठ्यै हा पाठ्यै समीचीनं भगिनि अहं पाठ्यै हा बालकेन अहं
पाठ्यै
हा इदानीं तत्र बालकाः माम् इति अस्ति चेत् बालकाः इति बहुवचनमस्ति कर्तृपदस्य कर्तृरूपम् एकवारं वदतु
बालकाः माम् पाठ्यै एव
न न न अस्तु तत्र कर्तृरूपम् एकवारं वदतु बालकाः
बालकाः मां पाठयन्तु
हा पाठयन्तु इति उत्तमम् इदानीं कर्मणि लोट् हा
बालकाः मां बालकाः अहं पाठ्यै
अहं पाठ्यै इति समीचीनं किन्तु बालकः इति कर्तृपदस्य
बालकाभिः
न बालकैः
बालकैः
हा बालकैः
तृतीयविभक्ति बालकैः अहं पाठ्यै
अहं पाठ्यै इति भवति समीचीनं भगिनि हा तथैव अस्ति अस्तु तर्हि अतः तत्र कर्तृलोट् कर्मणि लोट् तत्र परिवर्तनं कथं करणीयम् इति अस्माभिः ज्ञातम् इति मन्ये अतः इदानीं तत्र पाठः ये अस्ति तत् पठामः तर्हि अस्तु अत्र पेज् 133-134 मध्ये 134-134 मध्ये तत्र एकं वाक्यं क्लिष्टकरम् आसीत् तस्मिन् विषये अहं पृष्टवान् एतावत् उत्तरं न प्राप्तवान् प्रायशः अग्रिमे वर्गे वक्तुं शक्नोति इति मन्ये अतः इदानीं तत्र अग्रे सरामः तर्हि तत्र हा प्रायशः 135 मध्ये तत्र तत्रैव किञ्चित् आरम्भं कुर्मः तर्हि तत्र उषा भगिनी तत्र आरम्भं करोति वा तत्र
द्रोणः वदति वत्स यशो यशोवता समेध्यताम्
न अस्तु एकमेकम् एव स्वीकृत्य वदतु भगिनि तर्हि तत्र तत्र पूर्वं किमस्ति कर्णः आचार्य प्रणमामि इति उक्तवान्
आचार्य प्रणमामि इति अस्ति पूर्वस्मिन् पुटे
द्रोणः
द्रोणः वदति वत्स वत्स इत्युक्ते
कम् उद्दिश्य वदति
कर्ण
कर्णम् उद्दिश्य कर्णम् कर्णम् उद्दिश्य वदति
वदति यशोवता समेध्यताम् यशोवता तृतीया विभक्ति एकवचने अस्ति समेध्यतां लोट् अस्ति कर्मणि लोट् यदि कर्तरि लोट् करणीयमस्ति चेत् वत्स यशोवता यशोवत् इति मन्ये महोदय यशोवान् इति मन्ये यशोवान् समेध्यतां भवान् उक्तवान् एधते इति धातुः अस्ति तत्र समेधताम् इति
भवति सत्यं भगिनि तदेव एधताम् इति अस्ति इति मन्ये एधताम्
अनन्तरं भीष्मः वदति आचार्य आचार्य ममापि एष नमस्कारः ममापि एष नमस्कारः एषः अस्ति वा तत्र एष अस्ति वा न
तत्र एषः एव तत्र लोपः भवति भगिनि इदानीं सन्धिकारणेन भवति इदानीं चिन्ता मास्तु ममापि एषः नमस्कारः इति
अनन्तरं द्रोणः वदति पितामह मया एव ननु भवान्
ममापि एषः नमस्कारः तत्र क्रियापदं किम् अस्ति
मम अपि एषः नमस्कारः नमस्कारः अस्ति इति क्रियापदम् अस्ति
तावदेव मम एव ममापि एषः नमस्कारः
एषः इत्युक्ते किं वद तत्र अस्ति महोदय ममापि मम
नमस्कारः एषः नमस्कारः एतत् पुस्तकम् एषः नमस्कारः नाम सः साक्षात् नमस्कारः करोति खलु किमर्थम् एषः अस्ति
न ममापि नमस्कारः इति वदितुमपि शक्यते न तत्र ममापि नमस्कारः इति
सत्यं तत्र एष नाम कदा एषः अथवा एतत् इति वदामः
भवन्तं नमस्कारः इति वा भवन्तं नमस्कारः इति वा
न न भगिनि तत्र पुस्तकम् इति वदामः तदनन्तरम् एतत् पुस्तकं कदा एतत् पुस्तकम् इति वदामः
ओ ओके अच्छा एषः नमस्कारः ओके नमस्कारः तस्य विशेषणम् एव
विशेषणं नमस्कारः इति पदस्य विशेषणम् एषः
ओके
तत्र पुस्तकं कुत्रापि अस्ति चेत् वयं न जानीमः तत्र केवलं पुस्तकम् इति वदामः खलु किन्तु पुस्तकम् अस्माकं समीपे एव अस्ति वयं प्रदर्शितुम् इच्छामः एतत् पुस्तकम् इति हस्तेन वयं प्रदर्शयामः ए पश्यतु एतत् पुस्तकम् इति प्रदर्शयति खलु तथैव तथैव सः प्रदर्शयति एषः नमस्कारः इति सः साक्षात् नमस्कारः करोति नमस्करोति तस्मिन् समये एषः नमस्कारः इति समीचीनं वा
आं महोदय धन्यवादः
हा मम अपि एषः नमस्कारः अस्ति इति तस्य कर्मणि रूपं किं भवति भगिनि उषा भगिनि
मम अपि मम तत्र षष्टिवृत्ति अस्ति न महोदय अहमपि नमस्कारं करोमि इति
यद् वाक्यं तत्र अस्ति तदेव स्वीकरोतु मम अपि एषः नमस्कारः अस्ति इदानीं तत्र कर्तृपदं कर्मपदं क्रियापदं सर्वं वदतु तत्र मम अपि
सम्बोधनं
भगिनि मम अपि एषः नमस्कारः अस्ति इति वाक्यम् अन्यत् किमपि मास्तु
मम एषः कर्त प्रथमाविभक्त्यम् अस्ति महोदय तत्र
कर्तृपदं किं कर्मपदं किम् इति वदतु भगिनि एषः नमस्कारः नमस्कारः अस्ति
क्रियापदम् अस्ति क्रियापदम् अस्ति चेत् अकर्मक अस्ति तत्र महोदय
अस्तु
अतः कर्मपदं नास्ति तत्र
अस्तु
क्रियापदमेव अस्ति कर्तृपदं मम
कर्तृपदं मम वा
न मम मयि अस्ति तत्र एषः नमस्कारः
आङ्ग्लभाषायां मा चिन्तयतु भगिनि यत् संस्कृते अस्ति संस्कृतया संस्कृतभाषया एव चिन्तनं भवेत् तत्र मम अपि एषः नमस्कारः अस्ति
एषः अपि नमस्कारः कर्तृपदमस्ति
नमस्कारः कर्तृपदम् एषः इति कर्तृपदस्य विशेषणम् इति वक्तव्यम् अस्तु खलु नमस्कारः इति कर्तृपदम् एषः नमस्कारः इति एषः इति विशेषणम् अस्तु अस्तु इदानीं तत्र तस्य कर्मणि रूपं भावे रूपं भावे प्रयोगः यतोहि अकर्मकः धातुः
कर्मणि वदनीयं वा महोदय
भावे प्रयोगः कर्मणि नास्ति भावे प्रयोगः यतोहि अकर्मकः धातुः खलु
आं महोदय भावे प्रयोगे मया अपि एषः किं भवति एषः एव भवति मया अपि एषः नमस्कारः एव भवति न महोदय
भगिनि भवती अस्तु सोपानेन गच्छामः तर्हि तत्र अस्ति इति क्रियापदं तस्य भावे प्रयोगे रूपं किं भवति
भूयते इति भवति महोदय
भूयते अस्तु अथ भूयते इति अस्ति अस्ति इति स्थाने भूयते इति आगच्छति अस्तु इदानीं कर्तृपदं किमस्ति अस्मिन् वाक्ये
नमस्कारः एषः विशेषणम् अस्ति
अस्तु केवलं कर्तृपदं स्वीकुर्मः नमस्कारः अस्तु इदानीं भाविप्रयोगे तस्य रूपं किं भवति नमस्कारः इति एव भवति वा अथवा अन्यत् रूपं भवति वा
नमस्कारः कर्तृपदमस्ति चेत् तृतीयाभ्यर्थ्यन्तं भवति
अतः किं कार्यम्
नमस्कारेण इति भवति वा महोदय
इदानीं वाक्यं क्रियापदमपि योजयति
एषः
यत् भवती उक्तवती तत् नमस्कारः इति तस्य रूपं किं, क्रियापदस्य रूपं किम् अस्ति, तावत् वदतु भगिनि, यत् कृतवती तद् वदतु
नमस्कारेण भूयते.
नमस्कारेण भूयते. इदानीं विशेषणम् इति एषः इति विशेषणम् अस्ति, अतः तस्य अपि परिवर्तनं भवति अथवा न भवति?
भवति, एतेन इति भवति.
हा, अतः वाक्यं किम् अभवत्?
एतेन नमस्कारेण भूयते.
हा, एतेन नमस्कारेण भूयते. इदानीम् अपि इति अस्ति, अपि कीदृशपदम्?
अव्ययम् अस्ति.
अस्तु, तस्य परिवर्तनं न भवति. इदानीं तत्र मम इति अस्ति, तस्य परिवर्तनं भवति वा?
न भवति महोदय.
किमर्थम्?
षष्टिविभक्ति अस्ति तत्र.
षष्टिविभक्ति अस्ति इति तेन किम्?
कर्तृपदस्य एव तृतीयविभक्ति भवति महोदय, भाविप्रयोगे.
परिवर्तनं केषां पदानां परिवर्तनं भवति? कर्मणि अथवा भावे प्रयोगः इति चिन्तनं.
कर्तृपदम् कर्तृपदस्य एव परिवर्तनं भवति महोदय.
न न भगिनि, केषां पदानां परिवर्तनं भवति? कर्तृप्रयोगवाक्यमस्ति, कर्मणि प्रयोगवाक्यम् अथवा भावे प्रयोगवाक्यम् इच्छामः, तत्र केषां पदानां परिवर्तनं भवति? किं किं सम्यक्तया वदतु भगिनि, तत्र किं किं परिवर्तयत्, तत्र क्रियापदस्य परिवर्तनं भवति वा, एतत् सर्वं वदतु, सोपानेन सर्वं वदतु.
मनसि
किन्तु मनसि भवेत्, किन्तु यदि न वदति वयं न जानीमः भवत्याः चिन्तनं किम् अस्ति इति, खलु? अतः सम्यक्तया वदतु.
भाविप्रयोगे कर्तृपदं तृतीयभक्त्यन्तं.
तत्र भाविप्रयोगे रूपं किम्? एतत् मास्तु, केषां पदानां परिवर्तनं भवति इति वदतु. तत्र कर्तृपदस्य परिवर्तनं भवति अथवा न इति एतत् वदतु.
कर्तृपदस्य परिवर्तनं भवति, कर्मपदस्य परिवर्तनं न भवति.
न भवति वा? किमर्थं न भवति?
कर्मपदं तत्र नास्ति महोदय, अकर्मक.
किन्तु साधारणतया तत्र केषां पदानाम् तत्र यदि नियमः वदति, नियमाः के इति वदति चेत्, तत्र केवलम् उदाहरणं दृष्ट्वा नियमाः वदति वा अथवा नियमाः साधारणनियमाः के इति वदति वा किम्?
भवान्
भगिनि, कर्मणि प्रयोगं रूपम् इच्छामः, को किमपि वाक्यमस्ति, कर्तृप्रयोगे वाक्यमस्ति, कर्मणि रूपम् इच्छामः अथवा भावे प्रयोगरूपम् इच्छामः, न जानीमः इदानीं तत्र कर्मपदम् अस्ति वा नास्ति, एतत् सर्वं त्यजतु. कर्मपदं भवेत्, कर्तृपदं भवेत्, सर्वं वाक्ये भवेत्, अनेकानि पदानि वाक्ये सन्ति. इदानीं केवलं तत्र प्रश्नः अस्ति, केषां पदानां परिवर्तनं भवति इति. कर्तृपदस्य भवति वा, कर्मणि कर्मपदस्य भवति वा, क्रियापदस्य भवति वा, एतत् सर्वं भवती जानाति एव, किन्तु वदतु सम्यक्तया.
कथं वदनीयम् इति न अवगच्छामि महोदय, कर्तृपदस्य भवति इति जानामि.
अस्तु, अतः वदतु, कर्तृपदस्य परिवर्तनं भवति, यतोहि विभक्ति परिवर्तनं कुर्मः इति भवती वक्तुं शक्नोति खलु?
आं महोदय.
अतः वदतु,
कर्तृपदस्य
परिवर्तनं भवति
भवति. अनन्तरं
कर्मपदस्य परिवर्तनं,
कर्मपदस्य
अस्तु, अन्य कोऽपि साहाय्यं करोतु तर्हि. तत्र नरेश् महोदय, नरेश् महोदय साहाय्यं कुर्वन्तु तर्हि. तत्र केषां पदानां परिवर्तनं भवति वाक्ये?
कर्तृपदस्य, कर्मपदस्य, क्रियापदस्य.
हा, इति अपि विशेषणमस्ति चेत्?
तस्य
विशेष तस्य अपि
परिवर्तनं भवति. अतः कर्तृपदस्य विभक्ति प्रथमा विभक्ति, कर्मपदस्य विभक्ति द्वितीया विभक्ति. इदानीं तत्र षष्टिविभक्तिपदम् अस्ति चेत् वाक्ये, तस्य परिवर्तनं भवति वा?
तस्य परिवर्तनं न भवति, केवलं कर्तृ पदस्य कर्मपदस्य क्रियापदस्य परिवर्तनं भवति.
इदानीं पञ्चमी विभक्त्यन्तं पदम् अस्ति वाक्ये, तस्य परिवर्तनं भवति वा?
न, तस्यापि परिवर्तनं न भवति.
इदानीं मम इति अस्ति, तस्य परिवर्तनं भवति वा?
न भवति.
न भवति. उषा भगिनी, अवगतं वा?
आं महोदय.
हा, अतः तत्र इदानीं भवत्याः वाक्यं पुनः पठित्वा, तत्र कर्तृरूपं पठित्वा कर्मणि रूपम् एकवारं वदतु भगिनि.
हा, भीष्मः वदति, आचार्य ममापि एषः नमस्कारः इति कर्तरिरूपम् अस्ति. कर्मणि रूपम् अस्ति चेत् आचार्य ममपि एतेन नमस्कारेण भूयते.
हा, इति अस्ति, उत्तमम् अस्ति भगिनि.
आं महोदय.
भवती जानाति, केवलं तत्र वक्तव्यमस्ति भगिनि, अतः एव तत्र अहं बहुवारं पृष्टवान्
कथं वदनीयम् इति. तदेव अहं वदन्
भगिनी, भवती 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 किम् उक्तवती? अस्मिन् तत्र कर्तृपदस्य प्रथमा विभक्तिः भवति, तत्र तृतीया विभक्तिः भवति इति उक्तवती, किन्तु केषां पदानाम् अस्ति चेत् भवती किं वक्तव्यं? कर्तृपदस्य, कर्मपदस्य, क्रियापदस्य, कर्तृपदस्य अपि कर्मपदस्य विशेषणम्, अन्येषां पदानां परिवर्तनं न भवति इति वक्तव्यं खलु?
अस्तु महोदय.
खलु?
आं महोदय.
अन्येषां पदानां परिवर्तनं न भवति. समीचीनं वा भगिनि?
अन्येषां पदानाम् इत्युक्ते लैक् पञ्चमीविभक्ति, षष्ठीविभक्ति इति अपि वदनीयं वा महोदय तत्र?
अन्येषां नाम कर्तृपदं नास्ति, कर्मपदं नास्ति, विशेषणमपि नास्ति, तर्हि तेषां पदानां परिवर्तनं न भवति खलु?
आं महोदय. न, परन्तु
कर्तृपदं, यदि कर्तृपदं नास्ति, कर्मपदं नास्ति, विशेषणमपि नास्ति, तर्हि तस्य पदस्य विभक्ति का भवेत्? तृतीया वा, पञ्चमी वा, चतुर्थी वा भवेत् खलु? अथवा उपपदविभक्ति भवेत्, द्वितीयापि उपपदविभक्तिरूपं भवेत्, किन्तु साक्षात् विशेषणं नास्ति इति कृत्वा तस्य परिवर्तनं न भवति खलु?
आं महोदय.
हा, इति एतत् संस्कृतभाषया वक्तव्यमस्ति खलु भगिनि?
आं महोदय. भवान् अपि मध्ये मध्ये प्रश्नः पृच्छति चेत् सम्यक् अस्ति महोदय.
अस्तु अस्तु भगिनि, अस्तु, अहं तादृशमेव करोमि, चिन्ता मास्तु. हा, तत्र चिन्ता मास्तु भगिनि. हा, अग्रे अग्रे गत्वा तथैव अहं करोमि.
अस्तु, वयं तु कथा यदा
तत्र केवलं तत्र यद् अभ्यासः अस्ति, केवलं तस्य उत्तरम् इति एव न, भवन्तः सर्वे तत्र विवरणं, तत्र समीपे स्थिताः विचाराः ये सन्ति तेषामपि विवरणं कर्तुं शक्नुवन्ति. तादृशी शक्तिः अस्ति, तादृशी शक्तिः.
परन्तु भवान् कथं वदनीयम्
इति एव प्रश्नः,
भवतः प्रश्नः. उत्तरं तु जानामि, परन्तु
अतः यदि एकरीत्या न, एकया रीत्या न भवति चेत् अन्या रीत्या वदतु. अतः तत्र केवलम् एकरीत्या एव वदामि इति मास्तु.
भवान् अपि मध्ये मध्ये प्रश्नं पृच्छतु महोदय.
पृच्छामि भगिनि, पृच्छामि, पृच्छामि. अस्तु, तर्हि इदानीं तत्र अस्तु, अग्रे सरामः. तर्हि तत्र नरेश महोदय अग्रे.
अग्रे द्रोणः वदति, पितामह मया एव ननु भवान् अभिवाद्यताम्.
हा, तत्र कर्तृपदं किं, कर्मपदं किम् इति वदतु महोदय.
कर्तृपदं तु मया अस्ति.
हा, मया.
कर्मपदं भवान् अभिवाद्यतां क्रियापदम्.
हा समीचीनं हा अस्तु इदानीं तत्र कर्मणि लोट् अस्ति एतत् कर्तृलोट् किं भवति
अहमेव ननु अहमेव ननु भवन्तं
भवन्तं
भवन्तं अभि अभिवदताम्
तत्र अभिवादयति इति
अभिवादयति
किन्तु अत्र अहमिति अस्ति अतः अहमेव ननु
वादयामि
अभिवादयामि
वदामि अस्ति वा महोदय
वादयामि इति अभिवादयामि इति अस्ति भगिनि
वादयामि न महोदय
किं भगिनि
वादयामि न महोदय
हा धन्यवादः भगिनि हा लोट् लकारि स्मः समीचीनं उत्तमं धन्यवादः भगिनि उषा भगिनि उत्तमं
लोट् लकारे अस्ति चेत् आनी आनी इति रूपमय
तदेव तदेव उक्तवती सा उषा भगिनी उक्तवती हा अतः वाक्यं महोदय
अपि च अभि वदामि शक्यते अथवा
न बाध्यताम् इति अस्ति महोदय
बाध्यता अस्तु लोट् लकारे अस्ति अहम् एव ननु भवन्तम् अभिवादयानि
अभिवादयानि अस्तु समीचीनम् अत्र तत्र अभिवादयानि समीचीनम् अस्तु अग्रे
भीष्मः वदति मया एव अभिवाद्यताम्
कर्तरिप्रयोगे अपि करणीयं न महोदय तत्र
कृतवान् कर्तृप्रयोगः
किमस्ति महोदय कर्तरिप्रयोगे अहम्
एव भवन्तम् अभिवादयानि
धन्यवादः
अस्तु अग्रे नरेश महोदय
भीष्मः वदति मया एव अभिवाद्यताम् अत्र कर्मणि अस्ति कर्तरि अहम् एव अभिवादयानि
पुनः तदेव वाक्यम् अस्तु न
अथवा आवाभ्याम् आवाम् अन्योन्यम् अभिवन्द्यावहै अत्र द्विवचनम् द्विवचनमस्ति अत्र आवाभ्याम् आवाभ्यां तु तृतीयविभक्ति अस्ति कर्तरिप्रयोगे प्रथमविभक्ति आवाम् आवाम् अत्र तु आवाम् अग्रे अस्ति आवां तस्य द्वितीयविभक्ति अपि आवाम् अस्ति आवाम्
महोदय तत्र अस्मिन् वाक्ये आवाभ्याम् आवाम् अन्योन्यम् अभिवाद्यावः इति तत्र कर्तृपदं किम् अस्ति
आवाभ्याम्
आवाभ्याम् इति तत्र विभक्ति का तत्र
तृतीयविभक्ति
अस्तु कर्मपदं किम् अस्ति
कर्मपदम् आवाम्
हा विभक्ति का तत्र
द्वितीयविभक्ति
न कर्मणि प्रयोगः अस्ति खलु
ओ तत्र प्रथमविभक्ति अस्ति
आवाम् इति प्रथमविभक्तिरूपम् अस्ति अस्तु समीचीनम् अपि अभिवन्द्यावः इति तत्र क्रियापदम् अस्तु इदानीं तत्र इदानीं तत्र कर्म कर्तृरूपं वदतु तत्र कर्तृरूपं
कर्तरिरूपं वा आवां प्रथमविभक्ति आवाम् अस्ति अग्रे आवां प्रथमविभक्ति तस्य द्वितीयविभक्ति अपि आवाम् अस्ति आवाम् आवाम् अन्योन्यम् अभिवादयाव
न इदानीं तत्र बन्द् इति धातुः महोदय तत्र वादयति इति नास्ति बन्द् इति धातुः
अभिवन्दावहै
तत्र यकारः नास्ति तावदेव अभिबन्धा
कर्तृप्रयोगे
आवाम् आवाम् अन्योन्यम् अभिबन्धा वहै
अभिबन्धाव इति लोट्लकारे अस्ति कर्तृप्रयोगे
बन्धाव इति नास्ति किमर्थं नास्ति बन्धाव अस्ति चेत् तत्र कदा भवति
कर्मकर्तृपदं न महोदय तत्र
बन्धाव इति कथं भवति कदा भवति बन्धाव इति रूपं क्रियापदस्य रूपं तत्र बन्धाव यदा भवति
कर्ता अनुसृत्य
तत्र
परस्मैपदी
धातुः अस्ति चेत्
अस्तु एतद् धातु परस्मैपदी नास्ति वा
तत्र बन्ध् इति धातुः बन्ध् इति धातुः परस्मै वा
आत्मनेपदी बन्ध् धातु आत्मनेपदी उपसर्ग उपसर्ग अस्ति चेत् कस्यापि धातूनां रूपं परिवर्तनं भवति न परस्मैपदी नास्ति आत्मनेपदी भवति
सर्वदा भवति इति नास्ति
भवेत्
सर्वदा भवति इति नास्ति अत्र न भवति इति चिन्तनमस्ति तत्र यतोहि भगिनि तत्र साधारणतया परिवर्तनं न भवति किन्तु कुत्रचित् भवति अतः तत्र यदि अस्माकं ज्ञानं नास्ति चेत् किं चिन्तनम् उपसर्गस्य योजनेन अपि तत्र आत्मनिपदिरूपमेव तिष्ठति इति खलु अभिबन्धावः इति किन्तु चिन्तनम् उत्तममेव तत्र परस्मैपदिरूपमपि भवेत् न जानामि किन्तु आत्मनिपदि इति चिन्तयामि अथ तत्र अभिबन्धावहै इति लोट्लकारः अभिबन्धावहै इति हा तत्र अन्योन्यम् इति तत्र किम् अस्ति तत्र क्रियाविशेषणमस्ति तत्र अन्योन्यं तत्र यत्र क्रियाविशेषणं भवति तत्र तत्र हा अत्र अन्योन्यं नाम परस्परं
तत्र क्रियाविशेषणम् अस्ति चेत् क्रिया अनुसृत्य तस्य रूपं तस्य रूपस्य परिवर्तनं भवति वा
तत्र क्रियाविशेषणं तत् तिष्ठति एव यद्यपि तत्र तत्र द्वितीयविभक्त्यन्तं भवेत् अत्र तु अपि एम् अस्ति अतः तत्र किमपि परिवर्तनं न भवति क्रियाविशेषणस्य द्वितीयाविभक्तिरूपं भवेत् किन्तु तस्य परिवर्तनं न भवति यतोहि पूर्वं
दृष्टवन्तः कर्ता एवं कर्म
कर्तृपदस्य क्रियापदस्य कर्मपदस्य विशेषणम् अन्येषां पदानां परिवर्तनं न भवति अत्र अतः तत्र क्रियाविशेषणस्य परिवर्तनं न भवति अस्तु अग्रे तत्र भवति एव अग्रिमवाक्यं
द्रोणः अस्तु आवाभ्याम् अस्तु आवाभ्यां परस्परं हस्ताः गृह्यन्ताम् तत्र कर्मणि प्रयोगे एव वाक्यं दत्तमस्ति
कर्तृपदं किं कर्मपदं किम् इति
आवाभ्यां तत्तु कर्तृपदमस्ति आवाभ्यां परस्परं अव्ययमस्ति वा
अव्ययमस्ति अपि तत्र क्रियाविशेषणमस्ति
क्रियाविशेषणम् परस्परं हस्ताः इत्युक्ते हस्ताः बहुवचनमस्ति हस्ताः बहुवचनं तत्तु कर्मपदमस्ति हस्ताः बहुवचनम् अस्ति गृह्यन्ताम् इति लोट्लकारे प्रथमपुरुषे एकवचनमस्ति गृह्यन्तां बहुवचनमस्ति हस्ताः इति बहुवचनं तदेव गृह्यन्तामपि क्रिया कर्मपदम् अनुसृत्य गृह्यन्तां बहुवचने प्रथम पुरुषे बहुवचनरूपमस्ति गृह्यन्ताम् तस्य कर्तरीरूपमस्ति आवाभ्याम् इत्युक्ते तत्र आवां कर्ता अस्ति आवां परस्परं तदेव भवति परस्परं हस्ताः तत्र हस्ताः 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 एव भवति प्रथम हस्ताः कर्मपदं किं भवति रामः हस्तेन न रामः रामौ रामं रामौ रामः न रामेण न किं वदामि
हस्तान्
एकनिमिषं रामान् तद् रामान् अनुसृत्य तस्य हस्तान् हस्तान् गृह्य हस्तान् आवां परस्परं हस्तान् आवान् अनुसृत्य द्वितीय द्विवचने तस्य रूपमस्ति लोट्लकारमे कर्मप्रदं गृह्यताम् इति वा गृह्यताम्
आवाम् इति अस्ति किन्तु खलु
आवाम् आवां द्विवचनं आवां परस्परं हस्तान् गृहधातु वा गृहधातु गृह्यतां वा गृह्यतां वा किं वद किम् अस्ति तत्र ताम् इति प्रयत्न
आवाम् इति अस्ति आवाम् इति अस्ति चेत् तत्र लोट्लकारे तत्र
गृह्यतां वा
गृह्णाव
ओ आवाम् आम् 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 करेक्ट् करेक्ट् गृह्याव पुनः वदति आवां परस्परं हस्तान् गृह्णाव
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 तत्र भगिनी तत्र नियमः जानाति खलु यद्यपि तत्र हकारः पूर्वम् अस्ति नकारः तदनन्तरम् आगच्छति किन्तु उच्चारणसमये नकारः पूर्वं तदनन्तरं हकारः
आम् महोदय अहं जानामि परन्तु किं वदामि त्रुटिः भवति तद् उच्चारणे समये
हा अतः तत्र गृह्णाति इति एव वदामः यतः वयं तत्र ब्रह्मा इति वदामः न तु ब्रह्मा इति तत्र यद्यपि लेखनसमये हकारः पूर्वं मकारः
अनन्तरं
किन्तु उच्चारणसमये मकारः प्रथमं तदनन्तरं हकारः अतः ब्रह्म इति वदामः तथैव अत्र अपि गृह्णाव इति रूपम्
एतत् गृह्यन्तां वा गृह्णन्तां वा तत् किमर्थं तत्र
गृह्णन्तां
गृह्णन्तां वा
गृह्णन्ताम् ओ तत्र गृह्यन्तां यत् कर्मणि तत्र तु गृह्यन्तां तत्र किमपि भेदः नास्ति किन्तु यदि तत्र गृह्णन्ताम् इति तत्र गृह्णाव गृह्णाव तत्र नकारः गृह्णाव इति गृह्णाव इति अस्ति अस्तु समीचीनम् अस्तु अग्रे
अग्रे दुर्योधनः आचार्य आगम्यताम् अत्र आचार्य आगम्यताम् अत्र तत्र भावे प्रयोगे भवान् भवन्तम् आगम्यताम् अत्र इति
भवता आगम्यताम् अत्र
भवान्
कर्तरिप्रयोगे
भवान् भवान् आगच्छतु
हा आगच्छतु भवान् अत्र
आगच्छतु अत्र आगच्छतु
इति एव समीचीनम् अस्तु अग्रे
प्रियमित्रेण कर्णेन भवतः सूचनाम् अनुसृत्य व्यूहः रचितः तत्र कर्तृपदे कर्तृवाक्ये एव भवति प्रियमित्रेण कर्णेन भवतः तृतीया विभक्ति भवतः सूचनां अनुसृत्य व्यूहः रचितः तत्र लोट्लकाररूपं नास्ति न महोदय तत्र
किन्तु तत्र कर्तृरूपं वदतु
प्रियमित्रः कर्णः
प्रियमित्रं सर्वदा
प्रियमित्रं कर्णः
कर्णः
तस्य तृतीया विभक्ति कर्णेन अस्ति न तदेव
तत्र भगिनि तत्र मित्रम् इति एव तत्र पदं मित्रम् इति किन्तु कर्णः इति तु तत्र पुल्लिङ्गपदमेव
प्रियमित्रः कर्णः भवान्
वेद भगिनि मित्रं प्रियमित्रं कर्णः इति
प्रियमित्रं कर्णः भवान् भवन्तं सूचनां
तत्र भवतः इति पदस्य विभक्ति का
भवान् भवन्तौ भवतः तृतीया विभक्ति
भवतः न न तृतीया
भवता वा ओ ओ ओ सोरि सोरि
भवतः
भवतः इत्युक्ते बहुवचनं
वा भगिनि आरम्भे संस्कृतभाषस्य पठनं कर्तुम् इच्छामः प्रथमप्रश्नः अस्ति भवतः नाम किं भवत्याः नाम किम् इति खलु
सत्यं सत्यं यो षष्ठी विभक्ति भवतः षष्ठी विभक्ति भवतः प्रियमित्रं कर्णः भवतः सूचनाम् अनुसृत्य व्यूहः रचितः अस्ति
न न न तत्र किं भवति तत्र एतद् भूतकाले अस्ति खलु तत्र इदानीं रचयति अस्ति रचितवान् अतः व्यूहं रचितवान्
एकवारं पुनः वदति महोदय प्रियमित्रं कर्णः भवतः सूचनाम् अनुसृत्य व्यूहं रचितवान्
हा व्यूहं रचितवान् तत्र किं भवति रचितः इति तत्र
प्रत्ययः
पठितः तत्र किं भवति अहं तत्र ग्रन्थं पठितवान् मया ग्रन्थः पठितः किन्तु तत्र पठितः किं भवति तत्र कर्मार्थे भवति तत्र यतोहि पठितः किं तत्र ग्रन्थः एव पठितः तत्र विशेषणं भवति ग्रन्थः पठितः ग्रन्थः तथैव तत्र
व्यूहः रचितः
करणेन व्यूहः रचितः तत्र मया ग्रन्थः पठितः अहं ग्रन्थं पठितवान् अहं ग्रन्थं पठितवान् मया ग्रन्थः
पठितः
अत्र करणेन व्यूहः रचितः अतः कर्तृ अर्थे किं भवति
कर्णः व्यूहं रचितवान्
हा कर्णः व्यूहं रचितवान् अतः एव तत्र प्रियमित्रं कर्णः भवतः सूचनामनुसृत्य व्यूहं रचितवान् इति भवति अस्तु समीचीनम्
इदानीं वीक्षताम्
तत्र कर्तृपदं किम् अस्ति
तत्र कर्तृपदम् इदानीं भवान् वीक्षताम्
न न भवता वीक्ष्यताम्
सोरि भवता वीक्षताम्
इदानीं कर्तृरूपं तत्र
इदानीं भवान् वीक्षतु
न न न तत्र वीक्ष्यताम् वीक्षति धातुः
पश्यतु
न न न न तत्र अन्यः धातुः अभवत् अन्यः धातुः अभवत्
पश्यताम् इत्युक्ते दृश्यतु इति न महोदय पश्यतु
अर्थः समानं किन्तु यत् यः धातुः अस्ति तस्य एव परिवर्तनं
धातु किम् अस्ति तत्र वीक्ष्यताम् इति वीक्ष वा
वीक्ष इति ईक्ष
वीक्ष इति धातुः अस्ति वा
चतुर्गः ईक्ष
वीक्षतु वा तत्र
आत्मनिपदि धातुः अस्ति ईक्षते
वीक्षते
अतः वीक्षतां यकारः नास्ति तावदेव भवान् वीक्षतां भवता वीक्षतां भवान् वीक्षताम् अस्तु समीचीनं हा तावदेव अस्तु अग्रे ललिताकुमारी भगिनी अग्रे करोति
कर्णः महाशय रथाः यत्र स्थाप्यन्ताम् इति सूचिताः तत्र स्थापिताः
तत्र कर्तृपदं किं भवेत्
कर्तृपदं रथाः अस्ति महोदय
न न एतत् कर्मणि प्रयोगः अस्ति कर्मणि प्रयोगे तत्र कर्तृपदस्य विभक्ति का कर्मणि प्रयोगे
रथैः
न न न कर्मणि प्रयोगः वाक्यम् अस्ति तत्र कर्मणि प्रयोगे कर्मपदस्य विभक्ति का
कर्मपदस्य विभक्ति द्वितीयविभक्ति
न न कर्मणि प्रयोगे कर्तृप्रयोगे अस्माकं सूत्रम् अस्ति एकं द्वे एकं नाम कर्तृपदस्य प्रथमाविभक्ति, कर्मपदस्य द्वितीयविभक्ति,
द्वितीयविभक्ति क्रियापदं प्रथमाविभक्ति,
क्रियापदं कर्तृपदम् अनुसरति. इदानीं कर्मणि प्रयोगे सूत्रमस्ति,
कर्मणि प्रयोगे कर्तृपदं तृतीयविभक्तिः भवति,
कर्मपदं
कर्मपदं द्वितीयविभक्तिः भवति,
प्रथमाविभक्ति भवति,
प्रथमाविभक्तिः भवति, क्रियापदं कर्मपदम्
अनुसरति. अतः तत्र कर्मपदं प्रथमाविभक्त्यन्तं, कर्तृपदं तृतीयाविभक्त्यन्तम्. अत्र पूर्वं वाक्यं तत्र कर्णः वदति रथाः यत्र स्थाप्यन्ताम् इति सूचिताः तत्र स्थापिताः. तत्र कर्तृपदं किं भवेत्? सः कार्यं कृतवान् तत्र
कर्णः.
हा, अतः तत्र किं भवेत् कर्तृपदम्?
कर्तृपदं कर्णः एव.
किन्तु कर्णः एव साक्षात् वदति खलु, अतः सः किं वदति?
अहम्
अहम् अहं, किन्तु कर्तृपदम् अहं, किन्तु अत्र कर्मणि प्रयोगः अस्ति इति कृत्वा तृतीयाविभक्त्यन्तरूपम्. अतः मया रथाः स्थाप्यन्ताम् इति सूचिताः तत्र स्थापिताः इति वाक्यं. तत्र मया इति न दत्तं खलु, किन्तु मया इति कर्तृपदं. रथाः इति किं पदं वाक्ये?
अतः कर्मपदं.
कर्मपदं, हा, तत्र कर्मपदं किं स्थापितवान् तत्र? रथान् स्थापितवान् खलु,
रथान्.
अतः इदानीं कर्तृपदं जानाति, कर्मपदं जानाति, क्रियापदं स्थाप्यन्ताम् इति सूचिताः इति सर्वम् अस्ति. इदानीं तत्र कर्तृरूपं किम् अस्ति इति किञ्चित् वदति वा तत्र? अहम्
अहं रथान् यत्र स्थापयन्तु इति सूचिताः तत्र स्थापितानि.
हा, किञ्चित् अस्तु भगिनि, अत्र अस्मिन् वाक्ये किञ्चित् क्लेशः अस्ति एव किञ्चित्, यतोहि तत्र सामान्यवाक्यं नास्ति. तत्र किं कुर्मः, तत्र पूर्वं तत्र वेदा भगिनी उक्तवती तत्र प्रियमित्रेण करणेन व्यूहः रचितः, तत्र कर्णः व्यूहं रचितवान् इति आसीत् खलु?
आम्.
हा, तथैव अत्र एतत् स्वीकरोतु, तत्र मया रथाः स्थापिताः इति स्वीकरोतु, मया रथाः स्थापिताः इति कर्मणि रूपम्.
आम्.
अत्र कर्तृरूपं किं भवति? अहं
रथान् स्थापितवान्.
अहं रथान् स्थापितवान् इति कर्णः वदति, अहं रथान् स्थापितवान्. इदानीं तत्र सूचिताः इति अस्ति पदं, सूचिताः किम् अस्ति, तत्र सम्बन्धः कुत्र अस्ति, सूचिताः काः अथवा के सूचिताः तत्र? तत्र सूचिताः इति पदमस्ति, तस्य सम्बन्धः कुत्र अस्ति वाक्ये? सूचिताः इति पदस्य सम्बन्धः अन्यपदं किम् अस्ति?
अन्य कोऽपि सूचिताः
न न
यत्र सूचिताः.
किमर्थं बहुवचने अस्ति सूचितः इति नास्ति, सूचितम् इति नास्ति, सूचिताः इति अस्ति तत्र?
स्थापिताः सूचिताः.
किं भगिनि?
स्थापिताः सूचिताः मध्ये सम्बन्धमस्ति.
हा, स्थापिताः अपि अस्ति, समीचीनं, किन्तु अन्यपदमपि भवति. किं स्थापिता अथवा काः के स्थापिताः?
रथान्.
हा, रथाः स्थापिताः, रथाः एव सूचिताः. अतः तत्र सूचिताः किं भवति? विशेषणं भवति रथाः इति पदस्य, स्थापिताः अपि विशेषणं भवति रथाः इति पदस्य. विशेषणद्वयमस्ति, किन्तु तत्र वयं दृष्टवन्तः अहं रथान् स्थापितः.
रथान् स्थापितवान्
इति अभवत्, किन्तु तत्र रथान् इति अस्ति, रथान् तस्य परिवर्तनं भवति चेत् सूचिताः इति तस्य अपि परिवर्तनं भवति, यतोहि विशेषणम् अस्ति, अतः सूचितान्, अतः तत्र अहं
रथान् यत्र
अहं सूचितान् रथान् तत्र स्थापितवान्।
सूचितान् रथान् वा महोदय?
सूचितान् रथान् तत्र स्थापितवान् इति भवति, सूचितः इति रथः इति पदस्य विशेषणम् अस्ति। अत्र यत्र स्थाप्यन्तां, तत्र कः उक्तवान् स्थाप्यन्ताम् इति? तत्र प्रायशः द्रोणः उक्तवान् अत्र स्थापयतु इति, अतः तत्र भवता यत्र स्थाप्यन्ताम् इति इति तत्र भवता इति भवेत् खलु, तत्र द्रोणः उक्तवान् प्रायशः तत्र अत्र स्थापयतु इति, अतः तत्र भवता यत्र स्थाप्यन्ताम् इति लघुवाक्यमस्ति, अतः तत्र किं भवति, अहं भवान् यत्र स्थापयतु इति उक्तवान् तत्र इति तत् भवति, तदनन्तरं यत्र स्थापयतु तत्र अहं सूचितान्
स्थापितवान्
यत्र स्थापयतु इति उक्तवान्, अहं सूचितान् रथान् तत्र स्थापितवान् अहम् इति। किञ्चित् क्लिष्टकरं वाक्यमस्ति किन्तु अस्तु, तर्हि तत्र समयः अपि जातः, अग्रिमवर्गे अपि किञ्चित् तस्मिन् विषये चर्चयामः, तदनन्तरम् अग्रे सरामः।
सूचिताः बहुवचने अस्ति न महोदय?
सत्यं भगिनि, यतोहि रथः बहुवचने अस्ति,
इत्युक्ते सूचितवान् तत्र स्थापितवन्तः इति न
सूचितवान् न भवति, तत्र किञ्चित् भेदः वर्तते। सूचिताः इति तत्र कर्मर्थे अस्ति, स्थापिताः इति कर्तृर्थे अस्ति, तत्र तत्र सूक्ष्मभेदः वर्तते।
अग्रिमवर्गः इति न भवति वा महोदय तत्र?
न यथा वयं पूर्वस्मिन् वाक्ये दृष्टवन्तः, तत्र रचितः रचितवान् तत्र रचितवान् तत्र साक्षात् क्रिया, तत्र किं स्थापितं, तत्र अहं रथान् स्थापितवान्, किन्तु तत्र सूचितः इति तत्र कर्णः न सूचितवान् खलु, अन्य तत्र द्रोणः सूचितवान् इति भवेत्, अतः तत्र सूचिताः इति एव स्वीकुर्मः, तत्र भवता भवता सूचितान् रथान् भवता तत्र तादृशं भवति, तत्र भवता इति अथवा किन्तु तत्र सूचितवान् इति न भवति, सूचिताः इति एव तिष्ठति अथवा सूचितान् इति भवति, तदनन्तरं स्थापितवान् इति वाक्यं भवति तत्र। अस्तु, भवती एव तत्र शान्तिमन्त्रं वदतु भगिनि।
ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ॐ शान्ति शान्ति शान्तिः। श्रीगुरुभ्यो नमः, हरिः ओम्। धन्यवादः महोदय।
धन्यवादः भगिनी, धन्यवादः।